नमस्कारः। इदानीं किरार्थार्जुनीयस्य पञ्चत्रिंशः श्लोकः। विजित्य यः प्राज्यमयच्छदुत्तरान् कुरु न कुप्यं वसुवासवोपमः सवल्कवासांसि तवाधुना हरन् करोति मन्युं न कथं धनञ्जयः। विजित्य यः प्राज्यम् अयच्छत् उत्तरान् कुरून् अकुप्यं वसु वासवोपमः सः वल्कवासांसि तव अधुना आहरन् करोति मन्युं न कथं धनञ्जयः। पूर्वस्मिन् श्लोके भीमस्य विषये उक्तवती। भीष्मः पूर्वं तु रथचारी आसीत्, इदानीं पादचारी अस्ति। पूर्वं रक्तचन्दनलिप्तशरीरः आसीत्, इदानीं तु सः इदानीं सः रेणुरूषितः, रेणुधूसरितः, धूसरितशरीरः अस्ति। एतत् सर्वं दृष्ट्वा कथं तव एतादृशं मृकोदरं दृष्ट्वा तव मनःकष्टं न भवति किं, मानसं न दुनोति किम् इति पृष्टवती। इदानीं धनञ्जयस्य विषये, धनञ्जयः अर्जुनः, क्रमेण भीमात् परः अर्जुनः किल, अतः अर्जुनस्य विषये इदानीं वदति। सः अर्जुनः धनञ्जयः इति पदस्य प्रयोगम् अत्र कश्चन विषयः अस्ति। अत्र किमर्थं धनञ्जयः इति पदस्य प्रयोगं कृतवती, न तु अर्जुनः, पार्थः इत्यादिकं प्रयोगं न अस्ति अत्र। धनञ्जयः, धनं जयति इति धनञ्जयः, सः एव मेरोः उत्तरान् देशविशेषान् गत्वा ततः विद्यमानान् राज्ञः बहून् जित्वा धनादिकम् आनीतवान् इति कृत्वा तस्य नाम धनञ्जयः इति। अतः तादृशः यः पूर्वम् एवम् उत्तरान् देशान् गत्वा ततः बहूनि धनानि आहृत्य आनीतवान् सः धनञ्जयः इदानीं वल्कलम् आनीतवान् अस्ति, सम्पादितवान् अस्ति। एतद् दृष्ट्वा कथं भवतः कोपः न उत्पादयति इति पृच्छति। कीदृशः धनञ्जयः इत्युक्ते वासव उपमः, वासवः इन्द्रः, इन्द्रतुल्यः, इन्द्रेण तुल्यः यः वासवोपमः यः धनञ्जयः उत्तरान् कुरून् विजित्य उत्तरे विद्यमानान् कुरुदेशान् विजित्य जित्वा प्राज्यम् इत्युक्ते अत्यधिकम् इति अर्थः। इन् अबण्डन्स् इति वदामः किल, तदेव प्राज्यम्, अत्यधिकम् अकुप्यं वसु अयच्छत्। कुप्यम् इत्युक्ते रजतं सुवर्णं विहाय, रजतं सुवर्णं त्यक्त्वा अन्य मेटल्स् सर्वं कुप्यं, ब्रास्, कापर्, जिङ्क्, तथा ताम्रम् इत्यादिकं, कांस्यं, ताम्रम्, एतत् सर्वं कुप्यम् इति उच्यते। रजतं सुवर्णं मात्रम् अकुप्यम् इति उच्यते, रजतं सुवर्णम्। अतः अकुप्यम् इत्युक्ते रजतं सुवर्णं, पुनः वसु धनादिकं वसु अयच्छत्। न आनीतवान् इति न वदति, दत्तवान् इति। एतत् सर्वं ततः तान् देशान् जित्वा आनीय तुभ्यं दत्तवान् धनञ्जयः। अयच्छत् इति पदस्य प्रयोगः, दत्तवान् केवलं स्वार्थभावेन स्वस्य समीपमेव तत् न स्थापितवान्, अपि च भवतः कृते दत्तवान् इति। एवम् उत्तरान् कुरून् विजित्य उत्तरदेशीयान् विजित्य अत्यधिकं रजतं सुवर्णं धनादिकं च आनीय दत्तवान् सः धनञ्जयः। अधुना कथमस्ति, वल्कवासांसि आहरन्। वल्कवासांसि, वल्कलम् इति जानन्ति आश्रमवासिनां, वनवासिनां वस्त्रमस्ति वल्कलं। वासः इत्युक्ते वस्त्रम् इति अर्थः। वासः, वाससि, वासांसि इति सकारान्तः नपुंसकलिङ्गशब्दः। इदानीं धनञ्जयः किम् आहरन् अस्ति, आहरति इत्युक्ते आनयति इति अर्थः। इदानीं यः धनञ्जयः पूर्वम् उत्तरान् देशान् जित्वा कुरून् जित्वा रजतं सुवर्णादिकं वसु आनीतवान् सः धनञ्जयः इदानीम् अधुना इदानीं वल्कवासांसि आहरन् अस्ति वल्कवस्त्राणि आहरन् सम्पादयन् अस्ति नो चेत् आनयन् अस्ति तादृशः धनञ्जयः तव मन्युं कथं न करोति तव कोपं कथं न करोति धनञ्जयः कथं कोपं न करोति इति न वदति वल्कवासांसि आहरन् धनञ्जयः यः धनञ्जयः इदानीं वल्कलम् आनयन् अस्ति केवलं तादृशः धनञ्जयः कथं तव कोपं न करोति इति वल् धनञ्जयः इति पदम् अत्र सार्थकं पदमस्ति सम्यक् भेदं दर्शयति द्रौपदी केवलं धनञ्जयः कथं तव कोपं न करोति इति न पृच्छति वल्कलम् आहरन् धनञ्जयः कथं तव कोपं न करोति इति पृच्छति वासवोपमः इन्द्रतुल्यः यः अर्जुनः उत्तरान् कुरून् विजित्य उत्तरस्थान् राज्ञः कुरु राज्ञः जित्वा प्राज्यम् अकुप्यं वसु अयच्छत् अत्यधिकं रजत सुवर्णमयं धनं दत्तवान् सः धनञ्जयः अधुना इदानीं वल्कवासांसि वल्कल वल्कद्वयमपि समानं वल्कवस्त्राणि आहरन् सम्पादयन् कथं तव मन्युं न करोति कथं तव मन्युः इत्युक्ते कोपमिति पूर्वमेव दृष्टवन्तः कोपं न करोति इति सामान्य अर्थः अस्य भावार्थं पुस्तके अस्ति पूर्वं राजसूयार्थम् अर्जुनः साहसेन उत्तरकुरुदेशान् अगम्यान् निर्जित्य अगम्यान् नाम नाट् ईसि टु एक्सेस् गन्तुं सरलतया गन्तुम् अशक्यं स्थलम् इति अर्थः तदेव अगम्यम् इति उच्यते अगम्यान् उत्तरकुरुदेशान् विजित्य प्रभूतं धनसम्पदं प्रभूतां धनसम्पदम् आनिनाय आनीतवान् इति अर्थः स एव अधुना त्वदर्थं तव कृते इति अर्थः त्वदर्थं वल्कलसम्पादने निमग्नः निमग्नः नाम एङ्ग्रोस् इन्वाल्व् इति अर्थः तत्परः येषां स्थितिं दृष्ट्वा तव क्रोधः वा लज्जा वा न उत्पद्यते किम् इति द्रौपदी पृच्छति अग्रे षट्त्रिंशः श्लोकः वनान्तशय्या कठिनी कृताकृति कचाचितौ विश्वगिवा गजौ गजौ कथं त्वमेतौ धृतिसंयमौ यमौ विलोकयन्नुत्सहसेन बाधितुं वनान्तशय्या कठिनी कृताकृति कचाचितौ विश्वक् इव अगजौ गजौ कथं त्वं एतौ धृतिसंयमौ यमौ विलोकयन् उत्सहसे न बाधितुम् उत्सहसे इति क्रियापदम् उत्सहते इत्यस्य मध्यमपुरुषः एकवचनं त्वं कथं न उत्सहसे भीमस्य विषये अनन्तरम् अर्जुनस्य विषये उक्त्वा इदानीम् अश्विनीपुत्रौ नकुलसहदेव नकुलसहदेवौ यमौ इति अस्ति यमलौ ट्विन्स् इति तौ उद्दिश्य वदति द्रौपदी नकुलसहदेवयोः विषये वदति एतौ कथं स्तः इदानीं पूर्वम् अर्जुनः वा भवतु भीमः वा भवतु महान्तौ वीरौ स्तः अतः वनवासकष्टं द्वौ अपि भीमार्जुनौ द्वौ अपि सोढुं शक्नुयाताम् वनवासकष्टं सहेते द्वौ अपि भीमार्जुनौ कारणं द्वौ अपि वीरौ स्तः सम्यक् युद्धं करोति द्वयमपि इति कृत्वा वनवासकष्टम् अपि द्वयोः कृते तावत् सोढुं तावत् कष्टं न स्यात् द्वयोः अपि सामर्थ्यं स्यात् किन्तु एतौ यमौ कीदृशौ आस्तां तत्र राज्ये इदानीं कथं स्तः इत्युक्ते द्वावपि पूर्वं महत्तु सुखं अनुभवन्तौ आस्ताम् इति अत्र श्लोके न उक्तम्, अस्माभिः एव अवगन्तव्यमस्ति. इदानीं कथमस्ति इति इदानीन्तनस्थितिं वदति सा. वनान्तशय्या कठिनीकृत आकृति, वनान्तः एव शय्या, तस्मात् कठिनीकृता आकृतिः यस्य अस्ति सः वनान्तशय्या कठिनीकृत आकृतिः भवति. अत्र द्विवचनम् आकृती यमौ इत्यस्य विशेषणं भवति. यतौ यमौ इदानीं कथं स्तः इत्युक्ते वनान्तशय्या कठिनीकृत आकृती स्तः. वनान्तः एव शय्या, वनस्य अन्तः, अन्तः इति पदस्य लास्ट् एण्ड् इति अर्थः न स्वीकरणीयः. इन्सैड् इत्यपि अन्तः एव, औट्सैड् इति पदस्य अपि अन्तः एव. अतः वनस्य अन्तर्भागे नाम इन्सैड् मध्यभागे इति अर्थः. वनस्य मध्यभागः एव शय्या अस्ति. शय्या जानन्ति किल, शयनं कर्तुं यत् पडुके इति वदामः, वनात् बेड् इति, तदेव शय्या इति उच्यते. वनस्य मध्यभागः एव शय्या अस्ति इदानीम्. अतः किम् अभवत्? कठिनीकृत आकृति, अकठिनं कठिनं कृतम् इति अकठिनीकृतः. किम् अकठिनीकृतः? तयोः आकृतिः. आकृतिः नाम अत्र शरीरं, देहः इति अर्थः. द्वयोः अपि शरीरं कठिनीकृतं वर्तते इदानीम्. तादृशौ यमौ, वनान्तशय्या कठिनीकृत आकृती यमौ इति द्विवचनप्रयोगः. भीमस्य विषये वा अर्जुनस्य विषये वा चिन्ता नास्ति, द्वौ अपि बलशालिनौ आस्तामिति कारणात् अत्र एतादृशं कष्टं तु न गणयति द्वयमपि, भीमार्जुनद्वयमपि. किन्तु एतौ तु कोमलशरीरौ आस्ताम्. इदानीं तु वनान्तशय्यायां शयनं कृतत्वात्, वनस्य वनप्रदेशेषु, वनभूमिप्रदेशेषु शयनं कृतत्वात् तयोः शरीरम् इदानीं कठिनं जातम् इति. अतः वनान्तशय्या कठिनीकृत आकृती यमौ. वनप्रदेशः एव शय्या इति अत्र रूपक अलङ्कारः. पुनः कीदृशौ आस्ताम् इत्युक्ते विश्वक् कचाचितौ यमौ. विश्वक् इत्युक्ते समन्तात्, सर्वतः, आल् अराउण्ड् इति अर्थः. सर्वत्र कच आचितौ आस्ताम् इमौ यमलौ, यमौ इति. चितः इत्युक्ते सम्यक् सङ्गृह्य, सम्यक् बद्धः, कच इत्युक्ते केशः इति अर्थः. केशाः आचिताः आसन्. चिताः इति पदस्य, चितः इति पदस्य अलङ्कृतः इति अर्थः. सम्यक् सङ्गृह्य, केशान् सर्वान् सम्यक् सङ्गृह्य एकत्र बद्धाः, सम्यक् नीट्लि टैड् इति अर्थः स्वीकुर्मः, इति अर्थं स्वीकुर्मः चितः. आचितः इत्युक्ते विकीर्णः इति अर्थः. केशाः विकीर्णाः, स्प्रेडेड् अत्र तत्र तत्र, सम्यक् सङ्गृह्य बद्धाः न आसन् तस्य केशाः, तयोः केशाः इत्यर्थः. कच आचितौ, कच व्याप्तौ इत्यस्ति. केशाः व्याप्ताः सन्ति. एवं केशाः व्याप्ताः सन्ति चेदपि, सन्ति चेदेव तस्य सः मनुष्यः तु किमपि कष्टम् अनुभवन् अस्ति इति ज्ञातुं शक्येत किल. यदि केशः सम्यक् बद्धाः न स्युः तर्हि सामान्यतया जनाः पृच्छन्ति किम् अनारोग्यमस्ति वा, नो चेत् किमपि मनः कष्टम् अस्ति वा इति. अतः केचाः सम्यक् सङ्गृह्य बद्धाः सन्ति चेत् तद् अस्माकं सुखं, सुखसूचकमेव निश्चयेन. अतः एतेषाम् एतयोः कचाः तु आचिताः आसन् इति कृत्वा कचाः आचिताः ययोः तौ कचाचितौ यमौ. पुनः कीदृशौ आस्ताम् इत्युक्ते अगजौ गजौ इव. कीदृशौ स्तः इत्युक्ते अगजौ गजौ इव. अगः न गच्छति इति अगः पर्वतः. अगात् जायते इति अगजः गजौ इव स्तः एतौ कीदृशौ गजौ इत इत्युक्ते अगजौ गजौ इव पर्वतात् जातौ गजौ इव स्तः एतौ काटियाने इव स्तः इति पर्वते जाताः गजाः कष्टम् अनुभवन्ति एव कारणं पर्वतेषु नतोन्नताः प्रदेशाः भवन्ति मार्गाः नतोन्नताः भवन्ति अतः गजानां गमनागमनं कष्टं भवति तथा यथा पर्वते जाताः गजाः कष्टम् अनुभवन्ति तथा एतौ यमौ अगजः अगजौ गजौ नाम पर्वते जातौ गजौ इव कष्टम् अनुभवन्तौ स्तः इति त्रीणि विशेषणानि यमौ इति पदस्य तादृशौ इमौ यमौ त्वं विलोकयन् त्वम् इमौ यमौ विलोकयन् इति यमौ इति पदं द्वितीया विभक्तिः द्विवचनम् अत्र द्वितीया कर्मपदत्वेन तस्य त्रीणि विशेषणानि आकृति वनान्तशय्या कठिनाकृति कठिनीकृत आकृति कचाचितौ अगजौ गजौ एतत् सर्वं द्वितीया विभक्तिः द्विवचनं भवति इमौ यमौ तावत् पर्यन्तं त्वम् एतादृशौ यमौ कीदृशौ यमौ वनान्तशय्या कठिनीकृत आकृति वनान्त वनभूमिप्रदेशेषु शयनत्वात् कठिनशरीरिणौ जातौ एतौ तादृशौ यमौ कचाचितौ कचैः आचितौ स्तः विशीर्णाः केशाः सन्ति द्वयोः अपि तादृशौ द्वौ विश्वक् सर्वत्र सर्वतः न एकत्र न सम्पूर्णे अपि मस्तके केशाः विकीर्णाः सन्ति सङ्कीर्णाः सन्ति सङ्गृहीताः सम्यक् सङ्गृहीताः न सन्ति अनन्तरम् अगजौ गजौ इव इमौ यमौ पर्वते अगः पर्वतः पर्वते जातौ गजौ इव कष्टम् अनुभवन्तौ स्तः तादृशौ एतौ नकुलसहदेवौ विलोकयन् पश्यन् त्वम् इति युधिष्ठिरं वदति त्वम् एतौ विलोकयन् कथं धृतिसंयमौ बाधितुं न उत्सहसे त्वं कथं धृतिसंयमौ धृतिः इत्युक्ते धारणार्थे धृतिः इति पदस्य प्रयोगः तुष्ट्यर्थे तुष्टिः नाम सन्तोषः तस्मिन् अर्थे अपि धृति इति पदस्य प्रयोगः धैर्यम् इति अर्थे अपि धृति इति पदस्य प्रयोगः अस्ति अत्र वयं तुष्टि इति अर्थं स्वीकुर्मः सन्तोषः इति अर्थे कथं त्वं सन्तोषसंयमौ संयमीति कः संयमी भवति यः सर्वाणि इन्द्रियाणि सम्यक् निग्रहीतुं शक्नोति सः संयमी भवति अतः संयमः नाम इन्द्रियनिग्रहः सन्तोषः निग्रहः एतौ द्वौ बाधितुम् अपगन्तुम् अपनेतुं कथं भवान् न उत्सहते इति पृच्छति भवान् कथं न प्रभवति एतद्वयमपि त्यक्तुं भवान् कथं न प्रभवति अपगन्तुं दूरीकर्तुं कथं न प्रवर्तते भवान् इति पृच्छति एवम् एतादृशीं तयोः एतादृशीम् अवस्थां दृष्ट्वा भवान् कथम् इतोपि धैर्येण इन्द्रियं निगृह्य तिष्ठति इति तस्याः आश्चर्यं तदेव अर्थः गूढार्थः कथम् एतत् धैर्येण इन्द्रियाणि सर्वाणि निगृह्य किञ्चिदपि कोपं न आगच्छति वा कथम् एतावत् इन्द्रियनिग्रहः शक्यः इति पृच्छति सा तद् भिन्नरीत्या पृच्छति कथं केन प्रकारेण धैर्यम् इन्द्रियनिग्रहम् एतद्वयमपि कथम् अपगन्तुं न शक्नोति इति पृच्छति एतद्वयमपि कथं दूरीकर्तुं न शक्नोति एतादृशीम् एतयोः नकुलसहदेवयोः अवस्थां दृष्ट्वा कथं न शक्नोति एतद्वयमपि त्यक्तुम् इति अत्र अन्वयः आगतः किल त्वम् इमौ यमौ विलोकयन् त्वम् कथं धृतिसंयमौ बाधितुं न उत्सहसे इमौ यमौ इति पदस्य विशेषणानि त्रीणि धृतिसंयमौ इति तस्य विशेषणत्वेन विशेषणं नास्ति कथं धृतिसंयमौ बाधितुं न उत्सहसे इति अत्र धृतिसंयमौ बाधितुम् इति अत्र द्वितीया विभक्तिः द्विवचनप्रयोगः किन्तु यमौ इति पदस्य विशेषणत्वेन न इति अन्वयं दृष्ट्वा तत् सम्यक् ज्ञायते वनान्तशय्या कठिनीकृता आकृति वनान्तप्रदेशे शयनत्वात् कठिनीकृतशरीरिणौ सर्वतः आचित कचौ विशी व्याप्त कचौ द्वौ अपि पर्वते जातौ गजौ इव इमौ यमौ विलोकयन् पश्यन् त्वं युधिष्ठिरं वदति त्वं कथं धृतिसंयमौ बाधितुं न उत्सहसे। कथं धृतिसंयमः एतस् इन्द्रियनिग्रहः धृतिः धैर्यम् अथवा सन्तोषः एतद्वयमपि सन्तोषं धैर्यम् एतद्वयमपि इन्द्रियनिग्रहं द्वयमपि बाधितुं न उत्साहसे दूरीकर्तुं न शक्नोति। भावार्थं हे नृप सुकुमारिणौ नकुलसहदेवौ वनेषु कठिनशिलातलेषु शयाते शयाते इति द्विवचनं एतयोः केशाः संस्काररहिताः आकाशे उड्डयन्ते। एतौ कान्तिविहीनौ वनगजौ इव दैन्येन वने सञ्चरतः वनगजाः दैन्येन सञ्चरन्ति इति एतौ अपि दैन्येन सञ्चरतः तादृशौ एतौ दृष्ट्वा अपि त्वं धैर्येण निग्रहेण च जीवसि इति महत् आश्चर्यम् एतत्। कथञ्चित् तस्याः तस्य युधिष्ठिरस्य कोपः भवेत् इति द्रौपद्याः प्रयत्नः। अग्रे सप्तत्रिंशः श्लोकः इमामहं वेदन तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः विचिन्तयन्त्या भवदापदं परां रुजन्ति चेतः प्रसभं ममाधयः। इमाम् अहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः विचिन्तयन्त्या भवद् आपदं परां रुजन्ति चेतः प्रसभं मम आधयः। विचिन्तयन्त्याः इति अत्र विसर्गस्य लोपः विचिन्तयन्त्याः विचिन्तयन्त्याः भवत् आपदं परां रुजन्ति चेतः प्रसभं मम आधयः इति पदविभागः। भ्रातॄणां त्रिभिः श्लोकैः उक्तवती भीमस्य अर्जुनस्य नकुलसहदेवयोः इति। इदानीम् अस्मात् श्लोकात् आरभ्य त्रिभिः श्लोकैः युधिष्ठिरस्य कीदृशी दशा अस्ति युधिष्ठिरस्य अवस्था कीदृशी अस्ति इति वदति। एतेषां कष्टं दृष्ट्वा अपि भवान् किमपि कर्तुं न प्रभवति। इदानीं भवतः कष्टं दृष्ट्वा मम मनः अपि इदानीं कष्टम् अनुभवति। इमां तावकीं धियम् अहं न वेद इति एकं वाक्यम्। अहं न जानामि इति अर्थः। अहं किं न जानामि इमां तावकीं धियम् इदानीं वर्तमानां तावकीम् इत्युक्ते त्वदीयं मामकः तावकः इति पदमस्ति। मम सम्बन्धः मामकः मामकाः पाण्डवाश्चैव इति वदति किल मम सम्बन्धः त्वत्सम्बन्धः तावकः भवति। अतः तावकीम् अत्र धियम् इति पदस्य विशेषणत्वात् तावकीं धियं धीः धियौ धियः धियम् इति द्वितीया विभक्तिः एकवचनं। त्वत्सम्बन्धि बुद्धिं तव सम्बन्ध विषयं मनोवृत्तिम् अहं न जानामि इति वदति। भवान् मनसि किं चिन्तयति इति अहं न जानामि। केनापि न शक्यते अन्यस्य चित्तवृत्तिः कीदृशी इति। कदाचित् तस्य भयम् अस्ति वा तस्य धैर्यम् अस्ति वा कष्टम् अस्ति वा इत्यादि द्रष्टुं प्रत्यक्षं द्रष्टुं न शक्नोति ज्ञातुमपि न शक्यत केनापि। अतः अहं न जानामि किं न जानामि इमां तावकीं धियम् अहं न जानामि। इदानीं भवतः मनसि किम् अस्ति इति तव मनसि विद्यमानां मनोव्यापारसम्बन्धविषयम् अहं न जानामि। चित्तवृत्तिः नाम धियम् इत्युक्ते चित्तवृत्तिः मनोव्यापारम् अहं न चिन्तनं सरलतया वक्तव्यं चेत् चिन्तनम् अहं न जानामि। चित्तवृत्तदर्थम् अर्थान्तरन्यासेन समर्थयति चित्तवृत्तयः विचित्ररूपाः खलु चित्तवृत्तयः विचित्ररूपाः चित्तवृत्तयः मनोव्यापाराः विचित्राः सन्ति ज्ञातुमेव न शक्याः भवन्ति अतः विचित्राः सन्ति। क्षम्यतां ततः पूर्वं पूर्वस्मिन् श्लोके कृत आकृति गजौ गजौ यमौ यमौ इति पदेषु प्रासः शब्दालङ्कारः वर्तते इति वक्तुं विस्मृतवती अहम्। इदानीम् इमं श्लोकम् अग्रे पठामः। परां भवदापदां विचिन्तयन्त्याः मम चेतः मम आधयः चेतः प्रसभं रुजन्ति इति अन्वयः। आधयः प्रसभं रुजन्ति, आधयः नाम मनोव्यथाः, मनःकष्टानि, मनःक्लेशाः प्रसभं रुजन्ति, प्रसभम् अत्यधिकं रुजन्ति। रुक् इति धातुः ऊण्डिङ्ग् इति अर्थः, रुजन्ति इत्युक्ते मम इट्स् ऊण्डिङ्ग् मी इति अर्थः, पीडयन्ति, टार्चर्। इतः एव रुग्णः इति पदस्य रुक् धातोः एव रुजन्ति इति अस्ति किल, रुग्णः इति पदम् इतः एव प्राप्तम्। आधयः प्रसभं रुजन्ति, मनःक्लेशाः अत्यधिकं पीडयन्ति। किं पीडयन्ति अत्यधिकम् आधयः किं पीडयन्ति इति चेत् चेतः पीडयन्ति। अत्र चेतः इति पदं द्वितीया विभक्तिः एकवचनम्। आधयः चेतः प्रसभं पीडयन्ति, मनोव्यापाराः, मनोव्यथाः, मनःक्लेशाः मनः प्रसभं पीडयन्ति, रुजन्ति इति। चेतः चेतस्य शब्दः, अतः द्वितीया विभक्ति एकवचनमपि चेतः चेतसि चेतांसि चेतः एव। आधयः मनः, मनः प्रसभं पीडयन्ति। कस्याः आधयः? मम आधयः, द्रौपद्याः मम आधयः। कीदृश्याः मम इत्यस्य विशेषणम् अस्ति विचिन्तयन्त्याः, विचिन्तयन्ती इति शत्रुप्रत्ययः स्त्रीलिङ्गः, तस्य षष्ठी विभक्तिः एकवचनं। विचिन्तयन्त्याः मम, किं विचिन्तयन्त्याः मम इत्युक्ते भवत् आपदं, भवद् आपदं, भवतः आपदं चिन्तयन्त्याः मम मनोमनक्लेशाः, मम मनः प्रसभं पीडयन्ति, अत्यधिकं पीडयन्ति। कीदृशीम् आपदम् इत्युक्ते पराम् आपदम्, परातिपदस्य अत्यन्त आपत्स्थितौ अस्ति। आपद् इत्युक्ते अत्र डेञ्जर् इति अर्थः न, कष्टं, वनवासकष्टं चिन्तयन्त्याः मम आधयः। मम मनः अपि कष्टम् अनुभवति, भवतः कष्टं दृष्ट्वा मम मनसि अपि कष्टम् इदानीम् अस्ति। भवान् धैर्येण अस्ति वा, भयेन अस्ति वा? कारणम् इदानीमपि इन्द्रियनिग्रहः निग्रहं कृत्वा अस्ति इति मम आश्चर्यम् इति लोके दृष्टवन्तः। अतः कथम् एतादृशम् अस्ति, भवतः असि किमपि कोपः न वा, के वा भावाः भवतः मनसि सन्ति इत्यादिकं सर्वम् अहं न जानामि। इमां तावकीं धियम् अहं न वेदे, अहं न वेद। भवतः धियं चित्तवृत्तिं, भवत्सम्बन्धिनीं चित्तवृत्तिम् अहं न जानामि। कारणं किं? चित्तवृत्तयः विचित्ररूपाः खलु, अन्ये चित्तवृत्तयः मनोव्यापाराः तु विचित्ररूपाः, भिन्नभिन्नरूपाः भवन्ति एकैकस्य मनसि अपि, ते अतः चित्रवृत्तयः, अतः ज्ञातुम् अशक्याः सन्ति विचित्रत्वात्। अतः भवतः मनसि किं विद्यते इति अहं न जानामि, किन्तु परां भवत् आपदाम् अत्यन्त भवतां भवतः आपत्स्थितिं चिन्तयन्त्याः, विचिन्तयन्त्याः मम, चिन्तयन्ती अस्मि अहं तादृश्याः मम द्रौपद्याः आधयः मनोव्यथाः मनक्लेशाः प्रसभं मम चेतः रुजन्ति। तथापि कर्तुं शक्यते अन्वयम्। प्रसभं मम चेतः रुजन्ति, अत्यधिकं मम मनः पीडयन्ति इति अस्य भावार्थं सरलः श्लोकः। मनोव्यापाराः विचित्राः बहुविधाः च वर्तन्ते, अत एव अहम् अधुना तव चित्तवृत्तिं वेदितुम् असमर्था अस्मि, ज्ञातुम् असमर्था अस्मि। वेदितुम् इत्युक्ते ज्ञातुम् इति। किन्तु तव विपत्तिं मनसि भावयन्त्याः मम, चिन्तयन्ति इत्यस्य भावयन्त्याः इति अस्ति। तव विपत्तिं, विपत् विपत् आपत् सर्वं समानार्थं भव तव कष्टं मनसि भावयन्त्याः चिन्तयन्त्याः मम चित्तं यथाभिः पीड्यते क्लेशैः मनकष्टैः पीड्यते परन्तु विपत्तिं स्वयम् अनुभवन् त्वं तु न विकरोषि त्वं विकारं न प्राप्नोषि एव भवतः अपि विपत्तिं भवानैव विपत्तिम् अनुभवन् अस्ति किन्तु तया विपत्त्या भवान् किञ्चिदपि विकारं न प्रदर्शयति कथम् एतावत् शान्तः अस्ति धैर्येण अस्ति इव दृश्यते अन्तः भयम् अस्ति वा न वा ते महत् आश्चर्यम् एतत् इति द्रौपद्याः कथनम्